इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। इदानीं वार्ताः। प्रधानमंत्री नरेन्द्र मोदी फ्रांस देशस्य नीस नगरं सम्प्राप्तवान्। भारतीय प्रवासी जनैः तस्य हार्दिकं स्वागतं कृतम्। भारतस्य प्रधानमंत्री नरेन्द्र मोदी महोदयः रात्रौ फ्रांस स्लोवाकिया देशयोः यात्रायाः प्रथमचरणे नीस नगरं सम्प्राप्तवान्। तत्र फ्रांस देशस्य वरिष्ठाधिकारिभिः तस्य हार्दिकं स्वागतं कृतम्। तत्र होटल नेग्रेस्को स्थले भारतीय प्रवासी जनैः तेषां हार्दिकं स्वागतं कृतम्। प्रधानमंत्री स्वीय यात्राकाले फ्रांस राष्ट्रपतिना सह द्विपक्षीय वार्तां करिष्यति तथा विविधेषु कार्यक्रमेषु सहभागित्वं वहिष्यति। फ्रांस देशस्य नीस नगरे प्रधानमन्त्रिणः नरेन्द्र मोदिनः भारतीय प्रवासी जनैः भव्यं स्वागतं कृतम्। तत्र फ्रांस इटली कलाकारैः प्रस्तुतानि कथक भरतनाट्यादीनि भारतीय शास्त्रीय नृत्यानि अपि दृष्टानि। नीस नगरे भारतीय प्रवासी जनानां स्नेहपूर्ण स्वागताय प्रधानमंत्री नरेन्द्र मोदी तेषां धन्यवादम् अकरोत्। फ्रांस देशस्य नीस नगरे प्राप्तस्य हार्दिक स्वागतस्य कृते प्रधानमंत्री नरेन्द्र मोदी भारतीय प्रवासी जनेभ्यः धन्यवादम् अकरोत्। सामाजिक अन्तर्जाल माध्यमेन प्रकाशिते सन्देशे तेन उक्तं यत् एतत् स्वागतं स्मरणीयम्। सः अवदत् यत् स्वदेशात् दूरस्थितः अपि भारतीयः प्रवासिनः जनाः भारतेन सह स्वीयं दृढं सम्बन्धं निरन्तरं धारयन्ति। प्रधानमन्त्रिणः नरेन्द्र मोदिनः स्लोवाकिया यात्रा भारत स्लोवाकिया सम्बन्धान् सुदृढीकरिष्यति। स्लोवाकिया देशे भारतस्य राजदूतः अपूर्व चन्द्रः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः स्लोवाकिया यात्रा उभयोः देशयोः सहयोगस्य नूतनान् मार्गान् उद्घाटयिष्यति। ब्रातिस्लावा नगरे आकाशवाण्याः वार्ताहरेण सह वार्तालापे असौ अवदत् यत् एषा यात्रा विशेषतः आर्थिक व्यापारिक सम्बन्धानां सुदृढीकरणे महत्वपूर्णां भूमिकां निर्वहिष्यति। भारतीय अंतरिक्ष अनुसंधान संस्थायाः अध्यक्षः डॉक्टर वी नारायणनः सूचितवान् यत् इसरो तथा परमाणु ऊर्जा विभागः चन्द्र अवतरण ज्ञानस्य विकासार्थं संयुक्त रूपेण कार्यं कुरुतः। भारतीय अंतरिक्ष अनुसंधान संस्थायाः अध्यक्षः डॉक्टर वी नारायणनः अवदत् यत् इसरो परमाणु ऊर्जा विभागेन सह मिलित्वा अत्यन्त शीतल परिस्थितेः संरक्षणार्थं उन्नत कृत्रिम तापन प्रणालीं च विकसितुं कार्यं कुरुतः। बेंगलुरु नगरे आयोजिते CSIR RISE सम्मेलने सः उक्तवान् यत् सौर ऊर्जया संचालितं चन्द्रयानत्रयस्य लैंडर विक्रम अवतरणयानं चन्द्रे केवलं 14 दिनानि यावत् कार्यम् अकरोत्। अवतरणयानं निर्मातुं प्रयासान् करिष्यतः इदानीं उभौ विभागौ, येन इदानीं 200 दिनपर्यन्तं चन्द्रे कार्यं भवेत्। कृत्रिम तापन प्रणाल्या युक्तं एतत् यानं चन्द्रस्य कठोर जलवायु परिस्थितिषु अपि कार्यं करिष्यति तथा च भविष्ये दीर्घकालिक चन्द्र अन्वेषण अभियानेषु अपि सहायकं भविष्यति। केन्द्रीय संचार मंत्री ज्योतिरादित्य सिंधिया हिमाचल प्रदेशे डाक विभागस्य ड्रोन आधारित डाक परिवहन सेवायाः शुभारंभम् अकरोत्। एषा सेवा मंडी प्रधान डाक कार्यालयात् रेहरधारा शाखा डाक कार्यालय पर्यन्तं प्रवृत्ता। अमेरिका देशस्य राष्ट्रपतिः डॉनल्ड ट्रम्पः उक्तवान् यत् ईरान देशेन सह युद्ध समापन सम्बद्धस्य सन्धिपत्रे अद्य हस्ताक्षरं सम्भाव्यते। तेन उक्तं यत् अस्य सन्धेः लक्ष्यं ईरानस्य परमाणु अस्त्रेभ्यः दूरीकरणमस्ति। एकदिवसीय पुरुष क्रिकेट श्रृंखलायाः प्रथम स्पर्धायां भारतेन अफगानिस्तानदलं पराजितम्। हिमाचल प्रदेशस्य धर्मशाला नगरे प्रथम एकदिवसीय क्रिकेट स्पर्धायां भारतेन अफगानिस्तानदलं 7 क्रीडक पुरस्सरं पराजितम्। इति वार्ताः।